जातस्य ध्रुवकुल एव तुङ्गकीर्ते रङ्गस्य व्यजनि सुतः सवेण नाम तद्दोष व्यतितमतिः स राजवर्यस्त्वत्पादे विहितमन वनम् गतो भूत् पापोऽपि क्षितितल पालनाय वेनः पौराद्यैरुपनिहितः कठोरवीर्यः सर्वेभ्यो निजबलमेव सम्प्रशंस भूचक्रे तव यजनान्ययौन्यरौचीत् सम्प्राप्ते हितकथनाय तापसौघे मत्तोऽन्यो भुवनपतिर्न कश्चनेति त्वन्निन्दावचन परो मुनीश्वरैस्तैः शापाग्नौ शलभदशमनायिवेनः सन्नाशात्खल जन बीरुकैर्मुनीन्द्रैस्तन्मात्रा चिर परिरक्षिते तदङ्गे त्यक्तागे परिमथितात् अथो रुदण्डाद्दोर्दण्डे परिमथिते त्वमाविराशीः विख्यातः पृथुरिति तापसोपदिष्टैः सूताद्यैः परिणुत भावि भूरिवीर्यः वेणार्त्या कबलित सम्पदौ धरित्रीम् आक्रान्तामिज धनुष तमामकाशीः भूयस्तामिजकुलमुख्यवत्सयुक्तैः देवाद्यैः समुचितचारु भाजनेषु अन्नादीनभिलषितानि यानि तानि स्वच्छन्दौ सुरभितनु मधुदुःखस्त्व आत्मानौ यजति मकैस्त्वयि त्रिधाम आरब्धे सततमवाजि मेधयागे स्पर्धालु शतमकयेत्यनीच वेषो हृत्वा स्वम् तव तनयात् पराजितोऽभूत् देवेन्द्रौ मुहुरिति वाजिनौ हरन्तौ वह्नौ तौ मुनिवरमण्डले जुहूषौ रुन्धाने कमलभवे क्रतौ समाप्तौ साक्षात्त्वौ मधुरिपुमै क्षता स्वयं स्वौ तद्दत्तौ वरमुपलभ्य भक्तिमेकाम् गङ्गान्ते विहित पदः कदापि देव सत्रस्तौ मुनिनिवसंहितानि शंसन् ऐच्छिष्टा सनकमुकान् मुनीन् पुरस्तात् विज्ञानम् सनकमुकोदितम् दधानः स्वात्मानौ स्वयमगमो वनान्तसेवी तत्तादृक्पृथुवपुरीश सत्वरौ मे रोगौघौ प्रशमय मातगेहवास्य।